एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। सर्वकारेण सार्वजनिक निकायेषु स्वदेशीय वस्तूनाम् प्रयोग सम्बद्धा एतद् विक्रमवर्षीया निर्देशिका स्वीकृता अस्ति। मार्गशीर्ष मासस्य सप्तविंशाष्टविंश दिवसयोः उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् मन्त्रालये ह्य सार्वजनिक कुर्वन् संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ। निर्देशिकायाः अनुसारेण सार्वजनिक निकायेषु स्वदेशीय वस्तूनां प्रयोगं प्रोत्साहयितुं निर्देशिका प्रकाशयिष्यते इति असूचयत्। संचार मन्त्री गुरूङ सुरक्षण मुद्रण केन्द्रस्य कार्यकारी निर्देशक पदे मोरङ जनपदस्य देवराज ढुङ्गानाविदम् हुतात्म गंगालाल राष्ट्रिय हृदय केन्द्रस्य संचालक समितेः सदस्य पदे डाक्टर राजेन्द्र प्रसाद बरालम दीपक राज सापकोटाविदम् च नियोक्तुम् निर्णीतम् अस्तीति अज्ञापयत्। एवमेव पादकन्दुक क्रीडायाः करान्ते क्रीडाया हस्तकन्दुक क्रीडा याश्च विजयिनः क्रीडकान् प्रशिक्षकान् व्यवस्थापकान् भौतिक चिकित्सकान् आहत्य पञ्चत्रिंशते जनेभ्यः पुरस्कारं प्रदातुं सम्मानं विधातुं च क्रीडा मन्त्रालयाय स्वीकृतिं प्रदातुं च निर्णीतम् अस्तीति मन्त्री गुरूङ असूचयत्। मन्त्रिपरिषदः उपवेशेन एतद् विक्रमवर्षीया राष्ट्रिय नगरीय नीतिः औद्योगिक निवेश कोष संचालन कार्यविधिः लघुद्योग प्रवर्धन नीतिः एतद् विक्रम वर्षीय वैद्युत सुशासनायोग संघटन संचालन प्रथम संशोधनादेशश्च स्वीकृताः वर्तन्ते। मन्त्रिपरिषद उपवेशेन ऐशैक वित्तकोषात् हरितोत्थानशीलस्य समावेशी विकास कार्यक्रमस्य कृते 1,000,000 अमेरिका देशीय डलर मुद्रायाः ऋण सहायतां स्वीकर्तुं तथाविधाः अन्याः आवश्यकानुदान सहायताः ऋण सहायताश्च स्वीकर्तुं च निर्णीतमस्तीति मन्त्री गुरूङ अज्ञापयत्। अत्रान्तरे सार्वजनिक सेवा प्रसारण संस्थायाः कार्यकार्याध्यक्ष पदे डाक्टर महेन्द्र विष्टः नियुक्तोऽस्ति। मन्त्रिपरिषदः उपवेशेन डाक्टर विष्टः कार्यकार्याध्यक्ष पदे नियुक्तो वर्तते। कार्यकार्याध्यक्षेण डाक्टर विष्टेन संचार सूचना प्रविधि मन्त्रालये सार्वजनिक सेवा प्रसारण परिषदः अध्यक्षस्य च संचार सूचना प्रविधि मन्त्रिणः पृथ्वी सुब्बा गुरूङ इत्यस्य समक्षम् ह्यैव पदगोपनीयतयोः शपथम् गृहीतम् वर्तते। डाक्टर विष्ट नेपाल टेलिभिजन संस्थानस्य पूर्व कार्यकार्याध्यक्षः वर्तते। एकेनैव व्यवस्थापनेन नेपाल टेलिभिजनम् रेडियो नेपालम् च सञ्चालयितुम् सर्वकारेण कतिपय मासेभ्य पूर्वम् सार्वजनिक सेवा प्रसारणाधिनियमः आनीतः आसीत्। सर्वकारेण तस्यैव अधिनियमस्य अनुसारेण सार्वजनिक सेवा प्रसारण संस्थायाः कार्यकार्याध्यक्ष पदे डाक्टर विष्ट नियुक्तो वर्तते। काष्ठमण्डप महानगरपालिकायाः पूर्व प्रमुखस्य पीएल सिंहस्य ह्यः दाह संस्कारः विहितोऽस्ति। काष्ठमण्डपस्य डल्लु समीपवर्तिनी कंकेश्वरी घट्टे सिंहस्य दाह संस्कारः विहितो वर्तते। नेपाली कांग्रेस दलस्य पूर्व केन्द्रीय सदस्यः जनसंख्या वातावरण पूर्व मन्त्री काष्ठमण्डप नगरपालिकायाः पूर्व नगर प्रमुखश्च काष्ठमण्डपस्य चाक्षीबारी स्थाने ह्यः प्रातः दिवंगतः आसीत्। प्रजातन्त्रस्य पुनस्थापनायाः पश्चात् 49-2000 विक्रम वर्षे स्थानीय स्तरस्य निर्वाचने कांग्रेस दलस्य पक्षतः सिंह काष्ठमण्डप नगरपालिकायाः नगर प्रमुख पदे निर्वाचितः आसीत्। अत्रान्तरे नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः ह्यस्तनेन आकस्मिकोपवेशेन काष्ठमण्डप महानगरपालिकायाः पूर्वनगर प्रमुखस्य पीएल सिंहस्य निधनं प्रति गभीरं दुःखमभिव्यज्य शोक प्रस्तावः पारितीकृतो वर्तते। उपवेशेन स्वर्गीयं सिंहं प्रति सम्मानं प्रकटयता शिवपौषस्य प्रथम द्वितीय तृतीय दिनांकेषु दिनत्रयं यावत् दलस्य केन्द्रीय कार्यालये प्रदेश कार्यालयेषु सर्वेषु जनपद कार्यालयेषु च ध्वजम् अर्धं नमयितुं निर्णीतं वर्तते। सिंहस्य दाह संस्कारात् पूर्वं ह्य नेपाली कांग्रेस दलस्य नेतृभिः सानेपावर्तिनं दल कार्यालयं प्राप्य सिंहस्य पार्थिव शरीरोपरि श्रद्धाञ्जलिः अर्पितः आसीत्। एवमेव काष्ठमण्डप महानगरपालिकायाः प्रमुख बालेन्द्र शाह उपप्रमुख सुनिता डंगोलश्च ह्य चाक्षीबारी स्थानं प्राप्य पूर्वनगर प्रमुखस्य सिंहस्य पार्थिव शरीरोपरि श्रद्धाञ्जलिम् अर्पयताम्। नेपाले अंग प्रत्यारोपण कर्ता रोगिणा अंगदात्रा छ अनलाइन वैद्युत माध्यमेन सूचना लब्धुम शक्यते। स्वास्थ्य जनसंख्या मन्त्रालयेन स्वास्थ्य सेवा विभागस्य हुतात्म धर्मभक्त राष्ट्रिय प्रत्यारोपण केन्द्रस्य च संयुक्त नियन्त्रणे विद्यमानायाः अनलाइन इति वैद्युत सेवायाः स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः उद्घाटनम् अकरोत्। मन्त्री पौडेलः अनया सेवया समग्रस्य देशस्य नागरिकाणां लाभाय सेवां विस्तारयितुं मन्त्रालयेन आवश्यक कार्यं विधीयते इति असूचयत। स्वास्थ्य मन्त्री पौडेलः प्रादेशिक चिकित्सालयेष्वपि प्रत्यारोपण सेवायाः विस्तारस्य लक्ष्यमस्तीति असूचयत। सभामुख देवराज घिमिरे समाजे संसदीय व्यवस्थायाः महत्वं बोधयितुं पत्रकारितायाः भूमिका महत्वपूर्णा भवतीति उक्तवान् वर्तते। संसदीय विषयक पत्रकार समाजेन प्रकाशितस्य संसदीय पत्रकारिता अवधारणा र अभ्यास इति नामकं पुस्तकं यः लोकार्पयन् सभामुख घिमिरे। संसदीय गतिविधिन् जनसमक्षं प्रापयितुं एतद् महत्वं वर्धयितुं च संसदीय पत्रकारितायाः भूमिका महत्वपूर्णा स्थिति उदैरयत। कार्यक्रमे राष्ट्रिय सभायाः अध्यक्ष नारायण प्रसाद दाहाल सांसदानां पत्रकारैः सहजं मधुरं च सम्बन्धं स्थापयितुं विमर्शनार्थं बलं प्रादाद। कार्यक्रमे उपसभामुख इन्दिरा राणा संघीय संसदः महासचिवः पद्मप्रसाद पाण्डेय च धारणां व्यक्तवन्तौ। राष्ट्रिय स्वतन्त्र दलस्य सभापते रवि लामी छाने विदस्य अनुसन्धान प्रतिवेदनम् सर्वकारीय अधिवक्तृ कार्यालये प्रस्तुतमस्ति। कास्की जनपद प्रहरी कार्यालयेन ह्य सर्वकारीय अधिवक्तृ कार्यालये अनुसन्धान प्रतिवेदनम् प्रस्तुतमस्तीति प्रहरी प्रवक्ता वसन्त कुमार शर्मा ज्ञापयति। सहकारी संस्थायाः वित्त वञ्चन सम्बद्ध प्रकरणे गत कार्तिक मासस्य द्वितीय दिवसे काष्ठमण्डपाद निगृह लामिछाने पोखराम नीतः आसीत्। पञ्चाशदुत्तरैक शततम विश्व पत्राचार दिवसस्य अन्तर्राष्ट्रियापराधानुसन्धान निकायस्य शततम वार्षिकोत्सवस्य च अवसरे सर्वकारेण 10 रूप्यकाणां पत्राचार चीटिका पत्रं प्रचलने आनीतमस्ति। पत्राचार सेवा विभागेन ह्य संचार सूचना प्रविधि मन्त्रालये आयोजिते कार्यक्रमे संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ पत्राचार चीटिका पत्रस्य शुभारम्भं व्यदधात्। तदवसरे मन्त्री गुरूङ नेपाले एव जनक शिक्षा सामग्री मुद्रणालयेन मुद्रितानां पत्राचार चीटिका पत्राणां प्रचलनस्य प्रारम्भणं प्रति सन्तोषं प्रकटयन् राष्ट्रिय सुरक्षायै अपि एवं विधानां कार्याणां स्वदेशे एव सम्पादनत्वेन सुरक्षण मुद्रण केन्द्रं प्रभावकारी रूपेण सञ्चालयितुम् आवश्यकता स्थिति प्रत्यपादयत्। उद्योग वाणिज्य आपूर्ति मन्त्री कथयति कोरिया देशस्य वित्तं प्रविधिं च प्रवेशयितुं नेपालेन ईप्सितं वर्तते। नेपाल गणतन्त्र कोरिया देशयो मध्ये कूटनीतिक सम्बन्ध विस्तारस्य 50वां वर्षस्य पूर्णस्य अवसरे मन्त्री भण्डारी एवं अकथयत् इति समाचारः।